यस्संध्यास्वनिशम् गुरुर्वतिपते सन्मङ्गलस्याष्टकम् सत्यपापहरम् स्वसेवि विदुषाम् भक्त्यैव बाभाषितम् भक्त्या वक्ति सुसम्पदम् शुभपदम् दीर्घायुरारोग्यकम् कीर्तिम् पुत्रकळत्र बान्धवसुहृन्मूर्तिः प्रयाति ध्रुवम्।